इयम् आकाशवाणी सम्प्रति वार्ता श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अद्य प्रसार्यमानं लेक्स फ्रेडमिन इत्यनेन सह स्वस्य पॉडकास्ट इति संवाद साक्षात्कारं श्रोतुं प्रधानमन्त्रिणा नरेन्द्र मोदिना जनाः प्रार्थिताः। लेक्स फ्रीडमिन पॉडकास्ट इत्यस्य निर्वाहकेन श्री फ्रीडमन इत्यनेन सह स्वस्य चित्ताकर्षक वार्तालापः अभवत्। सामाजिक माध्यम लेखने श्री मोदी अवदत् मोदीवर्यस्य बाल्यं हिमालयस्य वर्षाणि सार्वजनिक जीवनस्य यात्रा इत्यादयः विविधाः विषयाः अस्य आवरणे समाविष्टाः आसन्। श्री फ्रीडमन वर्यः अवदत् यत् सः प्रधानमन्त्रिणा मोदी इत्यनेन सह त्रिहोराः यावत् पॉडकास्ट संवादं कृतवान् इति। सामाजिक माध्यम पटले पॉडकास्टर इत्येषः अकथयत् यत् एतत् तस्य जीवनस्य प्रबलतम आसु वार्तालापेषु अन्यतमम् आसीत् इति। श्रीशाह मिजोरमः इत्यत्र आइजॉल नगरात् जोखावसंग नगरं प्रति असम राइफल्स इत्यस्य स्थानांतरणं मिजोरम राज्यस्य विकासस्य महत्वपूर्णं सोपानम् इति प्रशंसाम् अकरोत्। असम राइफल्स बटालियन मुख्यालयस्य मध्य एजाल नगरात् एजाल नगरस्य जोखावसंग नगरं प्रति स्थानांतरणे भाषणं कुर्वन् श्रीशाहः अवधानं दत्तवान् यत् आइजॉल नगरस्य कृते नूतनम् अध्यायं राज्यस्य विकासस्य कृते महत्वपूर्णं सोपानं च अस्ति इति। सः अवदत् यत् असम राइफल्स बटालियन मुख्यालयस्य एजाल नगरस्य हृदयभागात् राज्य राजधान्याः प्रायः 15 किलोमीटर दूरे स्थितस्य जोखावसंग नगरं प्रति स्थानांतरणं मिजोरम राज्यस्य विकासस्य परिकल्पना अस्ति इति। वैश्विक वित्त सेवा संस्थायाः मार्गन स्टाल्नी इत्यस्य प्रतिवेदनस्य अनुसारं जर्मनी देशम् अतिक्रम्य 28-2000 वर्षपर्यन्तं भारतं विश्वस्य तृतीयं बृहत्तमं अर्थव्यवस्था भविष्यति। 23-2000 वर्षे 3.5 ट्रिलियन डॉलर मूल्यांकं भारतीय अर्थव्यवस्था 26-2000 वर्षे 4.7 ट्रिलियन डॉलर पर्यन्तं विस्तृता भविष्यति इति। वार्ताः।